सर्वेषां स्वागतम्। इदानीं ध्येयमन्त्रेण वर्गम् आरम्भं कुर्मः। अस्तु शारदा भगिनी,
भगिनी अहं वदामि वा?
आम् आं भगिनि वदतु।
पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्। संस्कृतस्य सदा भक्तो, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्। आत्मानमाहुतं मन्ये, वन्दे संस्कृतमातरम्। हिन्दुधर्मं समाजं च, पवित्रां संस्कृतिं तथा, संरक्ष्य ननु कुर्याम विश्वं शान्ति समन्वितम्। ॐ गुरुभ्यो नमः। हरि ओम्।
उत्तमं सहोदरि भगिनी भवती वदतु।
अहमेव
न न शारदा भगिनी, शारदा भगिनी अग्रिमवर्गे भवती वदतु। अस्तु, अद्यतनविषयः वयं पुनः अभ्यासदर्शिन्याम्। अस्तु, वयं पूर्वम् एतत् कृतवन्तः खलु, अहं प्रातःकाले उत्तिष्ठामि। कस्मिन् समये? रामः प्रातः सार्धपञ्चवादने उत्तिष्ठति इति। एतम् अभ्यासं कृतवन्तः वयम्। इदानीम् अत्र कुर्मः अभ्यासः। प्रपरश्वः भानुवासरः, तर्हि शनिवासरः कदा इति प्रश्नः। का आरम्भं करोति? सागरी भगिनी आरम्भं करोतु।
परश्वः शनिवासरः,
परश्वः शनिवासरः अहम् अत्र लिखितवती, सुलभं भवतु इति चिन्तयित्वा लिखितवती। प्रपरश्वः इति अस्ति चेत् अत्र एव प्रपरश्वः, 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 प्रपरश्वः भानुवासरः, परश्वः शनिवासरः। अस्तु शारदा भगिनी, शुक्रवासरः कदा?
श्वः शुक्रवासरः।
उत्तमं, श्वः, परश्वः, प्रपरश्वः, शुक्रवासरः। गुरुवासरः कदा? का वदति? केत्कि भगिनी,
अद्यः गुरुवासरः।
अद्य एव, अद्यः न, अद्य,
अद्य,
अद्य गुरुवासरः। उत्तमं, लिखामि अद्य, अद्य गुरुवासरः। अस्तु, मङ्गलवासरः कदा सविता भगिनी?
अद्य गुरुवासरः अपि, श्वः
अत्र एकनिमिषम्, अत्र भविष्यत्काले श्वः इति भवति, श्वः।
आम् आम् आं भगिनि,
भूतकाले ह्यः, ह्यः,
श्वः,
श्वः, परश्वः इति भवति। एवमेव ह्यः, परह्यः,
ह्यः, परह्यः मङ्गलवासरः,
अपि च परह्यः, परह्यः
प्रपरह्यः
प्रपरह्यः मङ्गलवासरः
न भगिनि
वदतु
प्रपरह्यः प्रपरह्यः सोमवासरः
सोमवासरः
प्रपरप्यः
परह्यः मङ्गलवासरः खलु परह्यः मङ्गलवासरः परह्यः मङ्गलवासरः सो अत्र प्रश्नः अस्ति मङ्गलवासरः तदा एव
अस्तु अस्तु भगिनि
अस्तु सन्ध्या भगिनि सो अत्र ट्रिक् क्वश्चन् भगिनि अत्र
प्रपरह्यः सोमवासरः
प्रपरह्यः सोमवासर उत्तमं प्रपरह्यः सोमवासर ह्यः परह्यः प्रपरह्यः अद्य श्वः परश्वः प्रपरश्वः तथा एव भवति अस्तु उमाकृष्णन् भगिनी बुधवासरः कदा
ह्यः बुधवासरः
ह्यः बुधवासरः अस्तु ह्यः बुधवासरः अस्तु
भगिनी
वदतु
भगिनी एक प्रश्नः अस्ति
पृच्छतु भगिनि
हौ केन् ऐ से हौ वास् योर् मकर संक्रान्ति हौ केन् ऐ मेक् सेण्टेन्स् इन् संस्कृत
भवती एव वदतु हौ विल् यु आस्क् मकर संक्रान्ति कथम् अण्ड् देन् वाट् इस् द वर्ब् यु विल् यूस्
यस्टर्डे
यस्टर्डे ह्यः
okay so makar sankranti how you I mean how you celebrate makar sankranti whole sentence
okay bhavati makar sankranti katam acharitavati
so I would like to ask everybody
bhavantah
katham acharati makara sankranti
so bhagini so acharitavati is for ekavachanam for me strilinga ekavachane acharitavati
I would like to ask all indian
right so how will you change that bhagini
acharatyah
आचरितवन्तः खलु बिकास् अत्र पुरुषाः अपि सन्ति आचरितवन्तः
धन्यवादः भगिनि ऐ वुड् लैक् टु आस्क् देम्
अस्तु
बिकास् वी डोण्ट् सेलिब्रेट् हियर् लैक् देम्
पुनरेकवारं पृच्छतु तर्हि ते वदन्ति
भवन्त्यः भवन्तः रैट् भवन्तः कथम् आचरितवन्तः
खलु भवन्तः
आचरितवन्तः मकरसङ्क्रान्ति
सो आचरितवन्तः अन्तिमपदं भगिनि क्रियापदम् अथवा क्रियापदसूचकपदम् अन्तिमपदमेव भवन्तः मकरसङ्क्रान्ति उत्सवं कथम् आचरितवन्तः
भवन्तः मकरसङ्क्रान्ति उत्सव कथम्
आचरितवन्तः इति
आचरितवन्तः
अस्तु अस्तु अग्रे गच्छामः सो अत्र सोमवासरः धावनस्पर्धा मङ्गलवासरः कौशलस्पर्धा बुधवासरः गणस्पर्धा इति एवम् अस्ति उपरि अध्यापकस्य साप्ताहिककार्ययोजना लिखिता अस्ति प्रश्नम् उत्तरं च उदाहरणानुसारं लिखत सो अत्र यदा अहं ह्यः ऐ मीन् ह्यः न गतवर्गे ततः पूर्वम् अपि उक्तवती बहूनि समासपदानि सन्ति. समासपदम् इत्युक्ते पदानां योजने भवति. सो अत्र साप्ताहिक एकनिमिषं साप्ताहिककार्ययोजना इति पदत्रयम् अस्ति. सो अत्र योजने वयं विभक्तिरूपाणि सर्वाणि त्यक्तवन्तः. अत्र समासपदम् इत्युक्ते विभक्तयः न दृश्यते. प्रथम द्वितीय तृतीय पदानां विभक्तयः न दृश्यते. अन्तिमपदस्य विभक्तिरूपमेव वयं द्रष्टुं शक्नुमः. सो अत्र साप्ताहिक सप्ताहः इति पदं खलु. सप्ताहः इत्युक्ते किम्?
वीक्
ओके. सो दिस् इस् आल्सो अ कैण्ड् आफ् समस्तपदम् इत्युक्ते वि हेव् सेवेन् डेस् खलु. सेवेन् डेस् सेवेन् अह् इस् अ डे. सो टुगेदर् वि काल् सेवेन् डेस्. सो आफ्टर् सेवेन् डेस् उदाहरणार्थं वयं भारतीयाः भारततः आगतवन्तः भारतीयाः देशीयाः. सो अत्र साप्ताहिक कार्ययोजना कार्य इत्युक्ते कार्यं मूलरूपम् अस्ति कार्य. योजना इत्युक्ते प्लान्. सो उपरि अध्यापकस्य कस्य योजना? अध्यापकस्य योजना साप्ताहिककार्ययोजना. सोमवासरतः भानुवासरपर्यन्तं योजना अस्ति. अत्र लिखिता अस्ति. सो अत्र सो दिस् इस् वाट् ऐ से कर्मणि प्रयोग. सो अहं केवलं उपस्थापनं कृतवती. उपस्थापनम् इत्युक्ते इन्ट्रडक्षन् एव, केवलं परिचयमेव कृतवती. सो अत्र लिखिता अस्ति, लैक् इट् हेस् बीन् रिटन् लैक् देट्. इट् इस् अ पेसिव् वाय्स्. लिखिता अस्ति. सो अत्र कुत्र लिखामि इति पश्यामि. सो अत्र ओके अस्तु. ओके अत्र योजना लिखिता इति पदं योजना इति पदस्य अनुसृत्य एव अस्ति. सो अत्र पुस्तकम् इति अस्ति चेत् कथं भवति लिखिता इति रूपम्?
लिखितम्
पुस्तकं लिखितं योजना लिखिता. अतः एतत् विशेषणविशेष्यभावः. सो लिखिता इति पदं विशेषणं भवति. के लिखिता इति पदं विशेषणं भवति. सो अत्र किं लिखिता अस्ति? योजना. योजना इस् द कर्मपदं खलु. Right?
Yes.
अध्यापकः लिखितवान् अस्ति. किं लिखितवान्? योजना लिखितवान्. सो इफ् यु हेव् टु पुट् दिस् इन् द रेगुलर् कर्तरि प्रयोगः इति अध्यापकः योजनां लिखितवान् अस्ति. सो अत्र लिखितवान् विल् बि वित् द अध्यापकः. That is the kartari prayoga. So in kartari, the importance is karta. Karta anusrutya kriya asti. Kartari prayoge karta anusrutya kriya asti. Udaharanatam, adhyapika iti asti ched. Adhyapika yojana लिखितवान् वा लिखितवती वा
लिखितवती
लिखितवती किमर्थं कर्ता अध्यापिका सो अत्र दिस् इस् वाट् वी हेव् लर्न् सो फार् इदानीं पर्यन्तं वयं कर्तरि प्रयोगमेव कृतवन्तः कर्तरि सो वै डु वि काल् कर्तरि कर्ता अनुसृत्य कर्ता इस् द मेन् थिङ्ग् सो द सप्तमी विभक्ति इस् कर्तरि कर्तरि ओके कर्तरि कर्ता वाट् एवर् द कर्ता इस् द क्रिया हेस् टु अग्रि इफ् इट् इस् लैक् पुरुष अध्यापकाः अध्यापकाः योजनां डस् नाट् चेञ्ज् योजनां लिखितवन्तः अध्यापिकाः योजनां लिखितवत्यः ओके सो कर्ता अनुसृत्य कर्तरि प्रयोगः भवति सो अत्र कर्मणि प्रयोगः अस्ति अतः एव कर्म अनुसृत्य अस्ति सो अत्र कर्मपदं किम्
साप्ताहिक
साप्ताहिककार्ययोजना मिलित्वा योजना ओके सो वि हाव् टु लुक् अट् द योजना योजना इस् द कर्मपदं देर्फोर् इट् इस् लिखिता ओके तावदेव अस्तु अग्रे गच्छामः
भगिनी एकः प्रश्नः अस्ति साप्ताहिकशब्दः सप्ताहः शब्दस्य विशेषणरूपं वा
no it is coming from the saptahika like
the saptahika come from saptahah bhagini or
saptahah saptahika something belonging to saptah like that
okay so it's not the adjective form of saptah
no No,
it's the weekly schedule is what this means, isn't it, Bhagini? So weekly could be considered as an adjective?
Like for the yojana, yes, for the yojana.
For the yojana. Okay. Can that be generalized into any kind of a rule, Bhagini? Saptahika, Dainika?
I was just going to say that. Like okay. when, no, I gave the example of Deshi, hello, Desha, Bharata Desha, Bharata Deshi. So certain words behave differently.
So
Udahanatham, Dasharatya Putraha Dasharatihi, like Dasharatihi. सप्ताहः साप्ताहिककार्ययोजनम् इति अस्ति बहु ध्वनिः अस्ति कृपया म्यूट् मध्ये गच्छन्तु धन्यवादः कृपया अस्तु धन्यवादः
भगिनी सोरि वन् मोर् क्वश्चन् इफ् ऐ मे this now likhita is determined by the karmani prayogam of the word saptahika karya yojana so how do we get that form likhita is it part of a table that we have learned
it is a part of it not the total udaharanartham aham likhitavati bhavati likhitavati so we take first portion of it likhi
okay
then likhit and then we change it to likhita likhitah likhitam
okay so this is for converting to the passive voice is it the likhita has been written
by whom no the question will be by whom so that is the lakshanam of karmani prayogah it was written by whom right? Okay. Otherwise, okay. It doesn't make sense. Like here, they haven't mentioned by whom.
By whom, right. Okay.
Kena likita iti atra na likitam asti. Parantu purna vakyam asti chet kena likita api avashyakam. Kena likita atra?
Lekhakah.
Lekhakena. So then it becomes tritiya vibhakti, lekhakena, athava adhyapakena. Adhyapakena likita asti. Tadeva purna vakyam.
Okay. But that likhita is not dependent on the gender. It is gender agnostic, right, Bhagini?
No. It is dependent on the gender of the karma pada.
Oh, I see. So here the assumption is it's a masculine gender, is it?
No, it's a strilinga kalu yojana.
Oh. But the no, I'm a little sorry, Bhagini. Yeah, I'm a little confused.
That's why I didn't. I made a mistake saying it. Probably. I mean, the karma is a very big topic. Okay, but here okay. I'm just because it is used so much in this book. So yojana likita. Supposing it is she wrote a book, pustak.
Likhitam. Okay.
Pustakam likhitam.
Okay.
Yojana likhita, kavita likhita, pustakam likhitam. Granta. How is that? Granta.
Likhitaha. Okay, Bhagini. Okay, that is so beautiful. But Bhagini, just to clarify this once more, this is what has been written. So the what is the Saptahika Karya Yojana, and the gender of that determines the gender of the Likha.
Correct.
Kriya, not the gender of who is writing it.
Correct.
Which could be the adhyapaka or the writer.
Or adhyapika. It could be, many people like that.
Okay. So it is dependent on what has been, the gender of what has been written.
So this is called karma, right? Karma padam.
Right.
This is the karma padam. So the seventh vibhakti for karma padam is karmani.
Okay.
So that is why it's called karmani prayogah.
Okay. Dhanyavada Bhagini. Thank you so much for your patience.
No problem. My pleasure. But I just don't want to go deeper. Then I have to go away from this book. Okay. So that's it. Asta. अस्तु प्रश्नम् उत्तरं च उदाहरणानुसारं लिखत दिस् इस् कर्तरिव किम् एतत् कर्तरि एव अस्तु प्रश्नः धावनस्पर्धा कदा उत्तरं धावनस्पर्धा सोमवासरे सो अत्र सोमवासरे एव अंशः सप्तमीविभक्तिरूपं स्वीकरणीयं सोमवासरे धावनस्पर्धा अस्ति अथवा धावनस्पर्धाः सोमवासरे अत्र स्पर्धाः इति अस्ति सो स्पर्धा एव पर्याप्तम् इति अहं चिन्तयामि धावनस्पर्धा सोमवासरे
भगिनि धावनस्पर्धा मीन्स् हीस् गोयिङ्ग् रन्निङ्ग् आर् समथिङ्ग् लैक् दट्
Running race. So this,
you just explain these words as we go along, please?
Asti, nischayana.
So running race, is it?
Running race. Competition race, like that. Running race. Dhavana Spardha. Asti, Sagari Bhagini. Arambha Karutu. Dvitiyam Prashnam Prithyo Anantaram Uttaram Api Vadatu.
Kaushalya Spardha.
कदा
कौशल स्पर्धाः कदा
कौशलम् इत्युक्ते यु आर् बिकमिङ्ग् एन् एक्स्पर्टिस् इन् संथिङ्ग् लैक् कार्ये कौशलम्
skill, something related to skill.
Yeah. Karya kushalaha. Karya kaushalam asti. Tasya karya kaushalam asti. Sambhashana kaushalam. Okay. So this is talent show, skill show. Astu bhagini, prashnam prichat.
Kaushala spardha kada.
Spardha kada.
Kaushala स्पर्धाः मङ्गलवासरे
मङ्गलवासरे उत्तमं शारदा भगिनी
गणस्पर्धाः कदा गणस्पर्धाः बुधवासरे
उत्तमं केतकि भगिनी अग्रे
भगिनी गणस्पर्धाः
गण इत्युक्ते वाट्
समथिङ्ग् टु डू वित् मेथमेटिक्स्
That is Gananam. Gananam is mathematics. Here it is like group. Group. Group competition. Okay, this is group competition. Astu. Ketati Bhagini?
Aam Bhagini. Chadna Veshaha Spardha Kada Guru Vasare.
Oorna Vakya Madhato?
छद्मवेषः स्पर्धा गुरुवासरे
सो अत्र छद्मवेषस्पर्धा एकमेव वेषः न छद्मवेषस्पर्धा गुरुवासरे
छद्मवेषस्पर्धा गुरुवासरे
उत्तमं भगिनि धन्यवादः
धन्यवादः भगिनि
किमर्थं भगिनि
छद्मवेष इत्युक्ते अन्य वेषं धृत्वा आगत्य अहं कः इति ते वदन्ति खलु छद्मवेष उत्तमं धन्यवादः महोदय स्वागतम् इदानीमेव भवतः ध्वनिं शृणोमि इदानीम् अस्तु अस्तु अग्रे सविता भगिनी
आं भगिनी अन्तिमघट्टस्पर्धा कदा अन्तिमघट्टस्पर्धा शुक्रवासरे
अन्तिमघट्ट इत्युक्ते लैक् स्टेज् लास्ट् स्टेज् अन्तिमघट्ट
फैनल् एक्साम् भगिनी
like the stage it's not exam but the final
competition
race. Final competition. The competition for the final race or the final stage say vadanti kalo quarter final semi final so this is the
final
final yeah. This is the final agre Sandhya Bhagini
varshikotsavah kada वार्षिकोत्सवः शनिवासरे
वार्षिक उत्सव वार्षिक इत्युक्ते वर्ष खलु एकवर्ष आन्युवल् प्रोग्राम् सो अत्र अत्र भगिनी समानरूपम् अस्ति साप्ताहिक साप्ताहिक वार्षिक वार्षिक
वार्षिक
समानरूप समानरूपं भवति
धन्यवादः
धन्यवादः अस्तु उमाकृष्णन् भगिनी
अध्यापकगोष्ठी कदा अध्यापकगोष्ठी भानुवासरे
अध्यापकगोष्ठी भानुवासरे अध्यापकगोष्ठी इत्युक्ते अध्यापकाः मिलित्वा किञ्चित् चर्चां कुर्वन्ति दट् इस् असेम्ब्लि सो द टीचर्स् विल् गेट् टुगेदर् धन्यवादः अस्तु अन्य के सन्ति अहं लिखामि परमेश्वर महोदय अन्य का अस्ति अथवा कः अस्ति अस्तु अत्र अभ्यास सर्वे कृपया म्यूट् मध्ये गच्छन्तु, बहिः ध्वनिः आगच्छन्ति. धन्यवादः. अस्तु, अत्र आगताः भविष्यन्ति. आगताः इत्युक्ते भूतकाल, आगतवन्तः इति अर्थः. भविष्यन्ति भविष्यत्काले भविष्यन्ति. सो अत्र भूतकाले अभवत्, आगताः इति अर्थः. अस्तु, उपरितनकोष्टकस्य आधारेण वाक्यानि लिखत. गतसप्ताहे सप्ताहः गतसप्ताहे गोविन्दः मम कार्यालयम् आगतवान्. गतसप्ताहे गोविन्दः मम कार्यालयम् आगतवान्. अवगतं वा कथं करणीयमिति? भविष्यत्काले कथं भवति? आगामिसप्ताहे कार्यकर्तृगोष्ठी मम कार्यालयम्
आगमिष्यन्ति.
अत्र गोष्ठी इति एकः पुरुषः न खलु, सो अतः भविष्यति. अत्र कार्यकर्तृगोष्ठी भविष्यति, भविष्यति भविष्यति. पुरुषः अस्ति चेत् आगतवान् आगतवती इति इति. सो इट् इस् जस्ट् अ प्रोग्राम् दट् इस् हेपनिङ्ग्. सो अतः भविष्यति, इट् इस् हेपनिङ्ग्, इट् विल् बि हेपनिङ्ग्. अस्तु
अस्तु भगिनी, ऐ हेव् अ डौट्.
हा,
भविष्यन्ति इस् प्लूरल् आफ् भविष्यति, रैट्? सो कार्यकर्तृगोष्ठी इसन्ट् इट् अ प्लूरल्?
नो नो, गोष्ठी नो, द वर्ड् गोष्ठी मीन्स् अ ग्रूप्, दट्स् इट्, गोष्ठी. सो एकवचनमेव भविष्यति एव.
ओके 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 भगिनि, थेङ्क् यु.
इट्स् अ ग्रूप् आफ् पीपल्, तावदेव तावदेव. अस्तु, परमेश्वर महोदय. गतमासे
मन्त्री मम कार्यालयम् आगतवान्.
मन्त्री मम कार्यालयम् आगतवान् गतमासे. गतमासे मन्त्रिण अत्र अत्र किम् अस्ति? सो अत्र गतमासे गतमासे किम् अस्ति अत्र?
गतमासे
निर्देशकः खलु, निर्देशकः.
गतमासे निर्देशकः वाक्य
मम कार्यालयं
आगतवान्.
किमर्थं कार्यालयम् आगतवान् न तु कार्यालये? नो प्राब्लम् महोदय, यु लर्न् एस् वि गो अलाङ्ग्. ओके, सो अत्र निर्देशकः इत्युक्ते यः आगत्य एवं करोतु एवं मा करोतु इति वदति खलु, सः एव निर्देशकः.
डैरेक्टर्
इन्स्ट्रक्टर् लैक् दट्. किं महोदय? सो हि गिव्स् डैरेक्षन्स् एवं करोतु एवं मा करोतु इति. अस्तु, सागरि भगिनि गतमासे.
सारी भगिनि, I have yet another question. You asked a very pertinent question of us, Bhagini, which is why is it not Karyalaye but Karyalayam? So Karyalaye would be inside the office, right, Bhagini? Whereas Karyalayam is like coming to the office. Would that be the reason why it is not Saptami but is Dvitiya?
Correct, correct. If you are already there, it is Saptami. If you are not yet there, but you are going towards there, then it is Dvitiya.
Dvitiya, okay. Dhanyavad, Bhagini.
Dhanyavad, Bhagini. Astu. Sagari, Bhagini. Gatavarsham.
Gatavarshe, Mantri Mama Karyalayam Agatavan.
मन्त्री मम कार्यालयम् आगतवान् मन्त्री इति पदस्य मूलरूपं मन्त्रिन् मन्त्रिन् एव सो अत्र मन्त्री इति पुल्लिङ्गपदमेव लैक् योगी स्वामी विद्यार्थी इति अस्ति खलु तथा एव मन्त्री अपि अस्तु शारदा भगिनी अग्रे गतपक्षः
गतपक्षे नगरसभाध्यक्षः मम कार्यालयम् आगतवान्
उत्तम
फोर्ट्नैट्
पक्ष वयं वदामः खलु शुक्लपक्ष एवम् एवं शुक्लपक्ष कृष्णपक्ष फोर्ट्नैट् गतपक्षे नगरसभाध्यक्षः अत्र अत्रापि पदत्रयम् अस्ति खलु नगरसभा अध्यक्ष सो इफ् यु हाव् टु स्प्लिट् इट् हौ डु वि हौ केन् यु रैट् इट् सभायाः अध्यक्षः नगरस्य सभायाः अध्यक्षः
कार्पोरेटर्
he is the president. I mean, he is the president. Adhyakshaha means president. Nagara Sabha Adhyakshaha. So, he is the city's president. Nagara Sabha Adhyaksha. So, if you don't want to make the vibhaktis, combine it. Nagara Sabha Adhyakshaha. Astu. Agre. Ketaki Bhagini.
आं भगिनि गतमार्चमासः सो गतमार्चमासः स्नेहितः मम गृहे आगताः
सो अत्र गतमार्च् मासः वा मासे वा भगिनि
मासे सोरि क्षम्यतां गतमार्चमासे स्नेहितः मम गृहे आगताः
किमर्थं गृहे
जस्ट् ऐ एड् इट्
नो 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 वै डिड् यू से गृहे अण्ड् नाट् गृहम्
ओ गुड् क्वेश्चन् भगिनि यस् गतमार्चमासे स्नेहित मम गृहम् आगताः
आगतवान् सो वै वाट् इस् राङ्ग् वेन् यु से गृहे भगिनि वाट् इस् राङ्ग् आर् इस् इट् राङ्ग्
गृहे इट् इस् राङ्ग् बिकास् ऐ हेव् टु यूस् द्वितीया विभक्ति
वै
वै
किमर्थम्
अहं न जानामि
सो इफ् यु आर् भवती इदानीं कुत्र अस्ति
अद्य अहं मम गृहे अस्ति
गृहे
मम गृहे अस्ति बिकास् गृह इस् अ आधार फार् मी टु स्टे
राइट सो गृहे ओके गृहे because you are already there you are right now you are there idanim bhavati bhavatyah grihe asti गतमार्च् मासे भवत्याः स्नेहितः आगतवान्. कुत्र आगतवान्? गृहम् आगतवान्.
What is the difference, Bhagini?
Yeah, if you are already there, then it is grihe. But oh. but he is coming to a place, then it is griham.
Okay, Bhagini. Okay, Bhagini. Now okay. I got.
Yeah. Yes. So once he comes, then bhavatyah snehitah bhavatyah grihe asit. Okay. Once he is there, we can say grihe asti. Huh. But before he comes, we have to say griham agatavan.
Griham agatavan. Okay, okay. So still he is coming to my house, not he is already in the house.
Yeah, if you are already in the house, then grihe asit.
Grihe asit. But he is coming to my house. So can I use their bhavishyanti? Bhavishyakal, can I use that?
Yeah, yeah. So how will you say bhavishyat kala agami march mase?
Agami march mase mama snehitah mama gruhe agashya
mama snehitah mama gruham kalo gruham
mama gruham agashyami
agamishyati
agamishyanti
agamishyati. Okay, so griham grihe bhedah. Okay, you have to understand that very clearly. Griham grihe, what is the difference? Griham grihe.
Aam bhagini, dhanyavada.
Dhanyavada. Astu. Savita bhagini.
Aam bhagini. Gata karyakrame kavihi mamma karyalayam agatavan.
Uttama. गत कार्यक्रमे
कार्यालयम् आगतवान्.
उत्तमम् उत्तमम् अस्तु. सो अत्र ऐ मीन् आगताः इति स्तम्भे इन् दिस् कालम् वामस्तम्भे एते सर्वे पुरुषाः अस्तु खलु. सो अतः आगतवान् 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 आगतवान्. परन्तु दक्षिणस्तम्भे आन् द रैट् कालम् दक्षिणस्तम्भे पुरुषाः न, केवलं कार्यक्रमः एव. अतः कार्यक्रमः भविष्यति इत्येव रूपं भविष्यति. ओके अस्तु. प्रथम उदाहरणमस्ति आगामिसप्ताहे कार्यकर्तृगोष्ठी भविष्यति.
भगिनि भगिनि, केन् ऐ आस्क् यू क्वश्चन्?
निश्चयेन.
भगिनि, ऐ एम् गेटिङ्ग् कन्फ्यूस् हियर्. गृहे ऐ अण्डर्स्टेण्ड् सप्तमी विभक्ति इस् आधार, गृह इस् आधार. परन्तु गृहं द्वितीया विभक्ति इफ् ऐ यूस् देट् मीन्स् सम् कर्ता इस् coming to my house, right?
Yeah. So one way to understand, Bhagini, what is the goal of the going? What is the phalam?
Okay. Goal, phalam. Phalam is somebody is coming to my house.
What is the phalam? What is the destination?
To coming?
No, coming is not the destination. What is the place?
Gruham.
So therefore it has to be dvitiya. Dvitiya is karma.
Oh yeah, karma.
Okay.
So he is coming to my house, that he is doing karma.
He's not doing, no, don't look at it that way. So look at it like, what is the purpose of his action? For example, aham svikaromi. Kim svikaromi?
Okay.
Kim svikaromi, supposing it is lekhani, how will you say that?
Lekhani svikaromi.
Lekhanim im.
Lekhanim svikaromi.
Lekhanim svikaromi. Okay. Lekhanim svikaromi. If it is chamasah
chamasam
chamasam svikaromi. So that is the goal of my svikaranam.
Astu bhagini.
Okay, the goal of the svikaranam, the object of the svikaranam, the phalam is the chamasah, then it has to be chamasam. Evam eva gachyati. What is the goal? How do you know he has met the goal?
Because he is going.
Where is he going?
Oh, sthanam. So, where he is going, that sthan, that place is coming on a dvitiya.
Dvitiya, that's it. Okay, so you think like that.
Yes. Dhanyavad, Bhagini. Sorry.
No problem. So, agre. Agami pakshaha sharadotsavah. Sharada. So it is Masa asti kala sharadotsavah astu. Ka vadati idani Savita bhagini abhavat kalu Sandhya bhagini.
Agami pakshe sharadotsavah bhavishyati.
Sharadotsavah bhavishyati astu. Uma Krishnan bhagini.
Agami masah varshikotsavah. Agami mase varshikotsavah bhavishyati.
So atra varshikotsavah punah patatu bhagini.
Varshikotsavah
bhavishyati uttama. Varshikotsavah annual day. Varsha varshikotsavah uttama. Amba vadati va? Amba
vadati.
Vadami va?
Agami vasse mama agami chaitra mase vasantotsava bhavishyati.
Uttamam. Vasantotsava bhavishyati agami chaitra mase. Uttamam. Astu. Parameshwar mahodaya. Mahodaya, asti va? Parameshwar Mahodaya? Astu tarhi. Anya kopi asti va? Yasya nama aham na uktavati?
Agami varshe mama padavriddhihi bhavishyati.
Padavriddhihi bhavishyati. Padavriddhihi ityukte?
Promotion.
Padavriddhihi. Uttama. Astu. अग्रिमम् अपि करोति
वा? आगामिकाले देशाभिवृद्धिः भविष्यति.
उत्तमम्. सो अत्र देश अभिवृद्धिः. देश अभिवृद्धिः इत्युक्ते
कण्ट्रीस् प्रोग्रेस्.
प्रोग्रेस् ग्रोत् अभिवृद्धिः वृद्धिः अभिवृद्धिः. सो अत्र थिङ्ग्स् टु नोटिस्. सो अत्र सर्वदा सन्देहः भवति पुल्लिङ्गं वा स्त्रीलिङ्गं वा नपुंसकलिङ्गं वा किमपि. सो अत्र अवधेयम् इत्युक्ते पे अटेन्शन्. सप्ताहः पुल्लिङ्गपदं, मासः पुल्लिङ्गपदं, वर्षं नपुंसकलिङ्गपदं, वर्षः न वर्षं, वर्षा इति वृष्टिः रेन्. परन्तु वर्षं इयर्. पक्षः पुनः मासः कार्यक्रमः. कार्यक्रमं न पक्षः मासः वर्षं कालः. प्रातःकालः प्रातःकाले इति भवति. आगामिकाले इदानीन्तनकाले इत्यादि. ओके. सर्वदा सन्देहः भविष्यन्ति. अस्तु. अस्तु, अन्तिम अभ्यासः अस्ति अत्र. सो अत्र किम् अस्ति, उदाहरणवाक्यम् अनुसरन्तः आवरणे दत्तस्य पदस्य साहाय्येन रिक्तस्थानं पूरयत. अस्तु, सो अत्र उदाहरणवाक्यम्, उदाहरणवाक्यम् इत्युक्ते उदाहरणम् एवम् अस्ति. उदाहरणवाक्यम् अनुसरन्तः आवरणे, आवरणे इत्युक्ते विदिन् द ब्राकेट्, आवरणे, आवरणम् आवरणे, दत्तस्य पदस्य, पदमस्ति पदस्य, दत्तस्य पदस्य साहाय्येन रिक्तस्थानं पूरयत. वयं प्रश्नं पृच्छामः चेत् प्रथमं क्रियापदं कुत्र अस्ति इति अन्वेषणं कृत्वा क्रियापदम् अनुसृत्य एव प्रश्नाः भवन्ति. उदाहरणार्थं पूरयत एव एव क्रियापदं, कः पूरयत? पूरयत इति लोट्लकार, सो अत्र भवन्तः पूरयत, न भवन्तः न, यूयम्, यूयम् इति मध्यमपुरुष. सो अत्र पूरयन्तु इति अस्ति चेत् भवन्तः पूरयन्तु. अवगतम्? अवगतं वा?
आं भगिनि.
पूरयन्तु, पूरयतु इत्युक्ते भवान् पूरयतु अथवा भवती पूरयतु. पूरयन्तु अस्ति चेत् भवन्तः पूरयन्तु, भवत्याः पूरयन्तु. अत्र पूरयत, अतः मध्यमपुरुष. वि हेवन्ट् लर्न्ड् इट् येट् बट् दिस् इस् मध्यमपुरुष. त्वं, युवां, यूयं, यूयं पूरयत, यूयं पूरयत. किं पूरयत? रिक्तस्थानं कुत्र पूरयत, खलु? कुत्र, वेर् रिक्तस्थानं, रिक्तस्थानं मीन्स् ब्लाङ्क्,
आवरणे,
आवरणे दत्तस्य पदस्य साहाय्येन. सो इट् गोस् टुगेदर्. आवरणे दत्तस्य पदस्य साहाय्येन,
whatever given in a bracket,
with the help of whatever is given in the bracket.
Yes,
with,
yes,
rikta sthanam purayata. Udaharana vakyam, so kim purayata? Udaharana vakyam anusarantah vakyani purayanta iti asti. Astu agre. प्रथममस्ति, सः दिने दिने योगासनं करोति, दिने दिने प्रतिदिनम्. अस्तु, का वदति? सागरी भगिनी.
अहं प्रतिसप्ताहं रामकृष्णाश्रमं गच्छामि.
उत्तमः. अहं प्रतिसप्ताहं रामकृष्णाश्रमं गच्छामि. बहु ध्वनिः अस्ति, अहं न जानामि कुतः आगच्छति इति. अस्तु, शारदा भगिनी.
अहं प्रतिमासम् अत्र सम्भाषणशिबिरं प्रचलति.
सो अत्र अहं न, प्रतिमासं अत्र सम्भाषणशिबिरं प्रचलति. सम्भाषणशिबिरम्, उत्तमं भगिनि. केतकी भगिनी.
प्रतिवर्षं वयं वार्षिकोत्सवम् आचरामः
प्रतिवर्षम्. अस्तु, सविता भगिनी एवं एतत् करोतु. शनिवासरं
साप्ताहिकगोष्ठी प्रचलति.
प्रति शनिवासरं
साप्ताहिकगोष्ठी प्रचलति.
उत्तमम्. सन्ध्या भगिनी.
प्रतिदिनम् अहं प्रातः पञ्चवादने उत्तिष्ठामि.
प्रतिदिनम् अहं प्रातःकाले प्रातः पञ्चवादने उत्तिष्ठामि. प्रातः एवम् अस्ति चेत् प्रातः एव, प्रातःकालः अस्ति चेत् प्रातःकाले. उमाकृष्णन् भगिनि.
अस्माकं पाठशालायां प्रतिपक्षं प्रदोषपूजा, पूजा प्रचलति.
सो अत्र पूजा प्रचलति, किं प्रचलति अथवा का प्रचलति?
पूजा
प्रचलति. सो देयरफोर इट इज प्रथमा विभक्ति. भवान् किं करोति अथवा भवती किं करोति?
अहं पूजां करोमि.
उत्तम. अहं पूजां करोमि, तत्र पूजाम् इति आगच्छति. पूजां करोमि, पूजा अस्ति, पूजां करोमि. उत्तमं भगिनि. अवगच्छति. अस्तु. अम्ब
भगिनि, सारि.
अस्तु. अम्ब वदतु. अध्यापकः
प्रतिपाठं प्रश्नं पृच्छति.
प्रतिपाठं प्रश्नं पृच्छति. उत्तमं. प्रतिपाठं प्रश्नं पृच्छति. अस्तु. परमेश्वर महोदय.
प्रतिवाक्यं मम सन्देहः.
प्रतिवाक्यं मम सन्देहः. अस्तु. अत्र वि केन् आल्सो से प्रतिवाक्ये मम सन्देहः अस्ति.
अस्ति. ओके. प्रतिवाक्ये मम सन्देहः अस्ति
अथवा प्रतिवाक्यम् अपि सम्यक् एव. अस्तु. सागरी
भगिनी. प्रतिवाक्यं मम सन्देहः अस्ति.
सन्देहः अस्ति अपि वक्तुं शक्नुमः. अस्तु. सागरी भगिनी.
नगरे प्रतिमार्गं शुनकाः अटति.
नगरे प्रतिमार्गं शुनकाः अटन्ति. प्रतिमार्गं शुनकाः अटन्ति. अस्तु. अग्रे शारदा भगिनी.
प्रतिपुटं चित्राणि सन्ति.
प्रतिपुटं चित्राणि सन्ति. प्रतिपुटं चित्राणि
भगिनी. पुटम् इस् अ पेज्.
पेज्. आम्. पेज्. अस्तु. सन्देहः अस्ति खलु.
आं भगिनी, धन्यवादः. भगिनी सत्यमेव वदति. अहं प्रतिवाक्यं मम सन्देहः एव अस्ति. वुड् इट् बि रफ् ट्रान्स्लेशन् टु से भगिनी दट् प्रातः रेप्रसेण्ट्स् ए एम् वेर् इस् प्रातः काल रेप्रसेण्ट्स् मार्निङ्ग्. सो
no, it's like morning time, like that
morning time. So the since we don't say prate, it is can we loosely or crudely understand this as we say pratah panchavadane because we're trying to say 5 a.m. On the other hand, we say pratah kale panchavadane because it is 5 o'clock in the morning.
They're both the same. Bagini pratah agachato. प्रातःकाले आगच्छतु. समानमेव.
ओके. नो, ऐ वास् ट्रैङ्ग् टु एक्स्प्लेन् टु अण्डर्स्टाण्ड् एस् टु वै वन् वुड् बि सप्तमी इन् दि अदर् वन् वुड् बि प्रथमा. एण्ड् ऐ वास् वण्डरिङ्ग् वेदर् इट् इस् बिकास् इन्
नो नो इस् नाट् इस् नाट् प्रथमा, परन्तु अव्ययम्. अव्ययम्.
अव्ययम्.
ओके. अद्य, श्वः, प्रातः, सायम्.
Okay.
So we say Shubha Sayam. शुभसमयकालं लड्
धन्यवादः
अस्तु पृच्छतु शारदा भगिनी सागरी वा
प्रतिवाक्यं मम सन्देहः अस्मि बि कम्प्लीट्
सन्देहः सो यु आर् नाट् टाकिङ्ग् अबौट् यु यु आर् टाकिङ्ग् अबौट् सन्देहः सन्देहः अस्ति
अस्ति ओ ओके थेङ्क् यु
भगिनी
वदतु
भगिनी अहं न अवगच्छामि गत सप्ताह मासः वाट् एवर् यु एक्स्प्लेन्
अस्तु सो अत्र अत्र अस्ति भगिनि पुस्तके अस्ति दिने दिने इति वदामः चेत् प्रतिदिनं
न न न नाट् देट् वन् आगताः Did you say that gata saptaha, gata masaha, how can we know pulling or
that? Oh, this one. So we just have to know. This is it. So how do we know? By looking at it again and again. Saptaha. And then using it in sentences. Saptaha, masaha, varsham, pakshaha. Okay. For dinam, it is napumsakalingam, dinam.
Dinam, varsham.
Varsham is... Varsham, napumsakalingam, dinam is napumsakalingam. Ganta, okay. The time, ganta.
Akaranta.
Akaranta, silingapadam, ganta.
So we have to see that gata saptaha, akaranta or akaranta.
Gata saptahe, gata saptahaha. It's the word, Pratama Vibhat. Then we have to say, Gata Saptahe.
So that way we know that Pullinga or Srilinga or Napusakling.
Parantu, we also say Gata Varshe. Varshe is also the same color. So how do we know by looking at Varshe? Pullingamba, Napumsakalingamba. We don't know.
Yeah.
We cannot, so we have to keep on be looking at the dictionary.
Okay.
Constantly looking, okay? Everybody will be doing that constantly. Astu,
Dhanyavada.
Dhanyavada, astu. Agre gacchama hakalo, prashna ha santi va?
Bhagini, in this table 39, the ones with the visarga, can we take it as pumlingam?
Absolutely.
And the ones ending in makara, we take it as napumsakalingam.
So when you say pullingam, it is pullingam padam. Because many people say pullingaha shabdaha. So if you're saying shabdaha, it is pullingaha. If you are saying padam, it's pullingam padam.
That is the vishesha visheshana bhava, right? It has to agree.
Agree, correct.
Astu bhagini, dhanyavada.
Dhanyavada. So, atra bhavishat kala rupani. Atra. Amba patativa pratamam. Who was the last one? Uma Krishna Palo, Amba patativa.
अग्नि
पत्नी
सोमवासरे प्रत्यागमिष्यति खलु भवान्
एतदपि पठतु
सोमवासरे प्रातः अत्र
भविष्यामि उत्तमं धन्यवादः सो अत्र गमिष्यति प्रत्यागमिष्यति एतानि भूतकालरूपाणि भविष्यामि सो अत्र साक्षात् लकारः खलु भविष्यति इति पदस्य कर्ता का अत्र भवान् खलु भवान् भविष्यति भवान् भविष्यति भविष्यामि इति पदस्य कर्ता क
अहम्
अहम् अहम् सो अत्र भेदः अस्ति खलु एतत् प्रथमपुरुषः प्रथमपुरुषः एतत् एषः उत्तमपुरुषः उत्तमपुरुषः कृपया बहु ध्वनिं करोतु धन्यवादः सो अत्र पुरुष पुरुषभेदः अस्ति प्रथमपुरुष उत्तमपुरुष अतः एतत् रूपं लकारः वा नो चेत् प्रत्याहार कृदन्तरूपं वा
लकारः
लकारः उदाहरणार्थं भूतकालरूपं वयं कृदन्तरूपमेव जानीमः कृदन्तरूपम् इत्युक्ते इस् नाट् अ लकार इस् नाट् अ तिङ्गन्तपदं खलु सो वि स्पोक् अबौट् इट् बिफोर् तिङ्गन्त इत्युक्ते लकार भवति लकारः सो अत्र सः आगमिष्यति अहं भविष्यामि सो अत्र पुरुषभेदः अस्ति उदाहरणार्थं भवती इति अस्ति चेत् भवान् इति पदस्य स्थाने भवती इति अस्ति चेत् एतत् कथं परिवर्तनं भवति सोमवासरे भवती परिवर्तनं न भवति परिवर्तनं न भवति एवमेव अत्र अहं पुल्लिङ्गरूपम् अस्ति चेत् अहं भविष्यामि पतिः वदति अहं भविष्यामि स्त्रीलिङ्ग अस्ति चेत्
भविष्यामि एव
अत्र लिङ्गभेदः नास्ति लिङ्गभेदः नास्ति पुरुषभेदः अस्ति अतः लकारस्य लक्षणम् एवम् अस्ति I'm saying it many times, so this is a very important amsham. Mute madhe gacchantu kripaya sarve. Vadatu anantaram mute madhe gacchantu. Parameshwar mahodaya.
Mitchur?
Bhagini, can we also say atra agamishyami?
अत्र आगमिष्यामि
ओके धन्यवादः
ऐ विल् बी देर् लैक् ऐ विल् बी देर् आर् ऐ विल् कम् देर्
लैक् ऐ विल् कम् देर्
पत्नी सुरेशः तस्य पत्नी पुत्राः सोरि सुरेशः तस्य पत्नी पुत्राः च अपि भवता सह आगमिष्यन्ति ननु
आगमिष्यन्ति ननु सो अत्र भविष्यत्कालरूपं सुरेशः तस्य पत्नी पुत्राः च अपि भवता सह आगमिष्यन्ति ननु भविष्यत्काल सो अत्र महोदय भवता सह इति ओह् सोरि भवता सह इति रूपं किम् तृतीयरूपं तृतीयविभक्तिरूपं भवता सह भवत्या सह रामेण सह सीतया सह इत्यादि अस्तु अग्रिममपि पठतु महोदय आम्
श्वः नागराजस्य विवाहस्य निमित्तं सुरेशः सपरिवारम् आगमिष्यति वयं सर्वे सम्भूयः परश्वः धर्मस्थलं गमिष्यामः ततः रात्रौ प्रस्थाय प्रपरश्वः अत्र प्रास्थामः प्रास्थ्यामः प्रातः उपाहारसमये वयम् उपस्थिताः भविष्यामः
अस्तु धन्यवादः महोदय सो अत्र आम् श्वः नागराजस्य विवाहस्य निमित्तं विवाहस्य निमित्तं षष्ठी अपि च निमित्तं षष्ठी निमित्तम् इति मिलित्वा अस्ति चेत् विभक्तिका अत्र विवाहस्य कृते इट् बिकम्स् चतुर्थी विभक्ति विवाहार्थं विवाहार्थं विवाहाय विवाहार्थं विवाहस्य निमित्तं विवाहस्य कृते सुरेशः सपरिवारं सपरिवारम् इत्युक्ते परिवारेण सह अत्र
पुनरपि वदतु हौ इट् बिकम्स् चतुर्थी
सो अत्र सपोसिङ्ग् ऐ वाण्ट् टु गिव् ए बुक् टु राम अहं रामाय पुस्तकं ददामि अथवा अहं रामस्य कृते पुस्तकं ददामि रामस्य निमित्तं लैक् देट् सो अत्र वेन् वि पुट् षष्टि प्लस् वर्ड् लैक् निमित्तं कृते
निमित्तम् इत्युक्ते
फार् द बेनिफिट् आफ़् फार् द बेनिफिट् आफ़् विवाहस्य निमित्तम् इत्युक्ते विवाहार्थं विवाहार्थं यत्र अर्थम् अर्थम् इति अस्ति तत्तु चतुर्थीविभक्तिरूपम् इति चतुर्थीविभक्ति रूपं न चतुर्थीविभक्तिं सूचयति
अस्तु भगिनि धन्यवादः
धन्यवादः विवाहस्य निमित्तं सुरेशः सपरिवारम् इत्युक्ते परिवारेण सह परिवारेण सह आगमिष्यति अथवा सपरिवारम् आगमिष्यति वयं सर्वे सम्भूय सम्भूय मिलित्वा सम्भूय सम्भूय परश्वः धर्मस्थलं गमिष्यामः सि धर्मस्थले न भगिनि इट्स् नाट् धर्मस्थले धर्मस्थलं गमिष्यामः धर्मस्थलं प्रति
गमिष्यामः
धर्मस्थलं प्रति गमिष्यामः वि आर् नाट् देर् येट्
यस् 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 ऐ गाट् इट्
यु गाट् इट् गुड् ततः मीन्स् कुतः धर्मस्थलतः धर्मस्थलतः रात्रौ रात्रि इति पदस्य सप्तमी विभक्ति लैक् दिने रात्रौ रात्रिः रात्रौ भूमिः भूमौ इति वदामः खलु रात्रौ प्रस्थाय प्रस्थाय इत्युक्ते
डिपार्चर्
डिपार्टेड् ओके सो इट् इस् स्थाय स्थाय इति रूपं किम्
चतुर्थी
न लेबन्तपदं गुड् गेस् भगिनि गुड् गेस्
बिकास् या कम्स् नो
उत्तमम् सो अत्र लेबन्तपदं कथम् आगच्छति कुत्र आगच्छति प्र इति उपसर्गः अस्ति अतः लेबन्तपदं प्रस्थाय केवलं स्था एव अस्ति चेत् स्थाप्य देन् इट् बिकम् अ त्वान्तपदम् अवगच्छन्ति वा त्वान्त लेबन्त सो ऐ विल् से अनदर् एक्साम्पल् गत्वा गत्वा मीन्स् वाट्
देट्स् अ त्वान्तपदम्
त्वान्तपदं बिकास् इट् हेस् अ त्वा त्वा
रैट्
त्वा मीन्स् गो आस् after going or having gone. Tatra gatva aham vadami.
Right.
After going there, I will say. But if you put a upasarga a before it, how will this change?
Then it is lyabantam.
How will that change?
Agantum.
Agatya. Agatya.
Agatya. Agantum. And gantum is tumun pratyaya. Gantum.
Gantum.
Gantum means to go there. To go there. Not yet happening. Gatva, agatya, like almost happened. Like that.
Right.
So astu bhagini. Atra api prastaya lyabanta padam. Pra nasti chet stapayitva iti asti. Stapayitva astu. Praparashvaha atra prapsyamaha iti te prapnomi iti rupasya bhavishyat kala bahuvachanam uttama purushaha prapsyamaha. So atra prapnomi iti kriyapadasya artha dvayam asti. Ekam asti aham phalam prapnomi iti tekem aham patram prapnomi. What does that mean? Aham.
I will get.
I get it. Aham lekani prapnomi. I get the lekani. E patram prapnomi. I get the e patram. But another thing is, aham dharmasthalam prapnomi. Tatra, I reach. Okay? So prapnomi iti padasya artha dvayam asti. Ekam asti, I received it. Or I obtained it. Anya asti, I reached. To reach a destination. Reach. So atra, tataha ratrav prastaya praparashvaha atra prapsyami. Prapsyamaha. We will reach here. Iti artaha. Avagachantiva? Astu. Agree. Upahara samaye vayam upasthitaha bhavishyamaha. Upahara mitite breakfast time. Or we call tiffin time. Breakfast time. Upahara samaye vaham upasthitaha, we will be present. Upasthitaha bhavishyamaha, we will be here. Basically saying, we will be here. Prashna hasti va? Astu, agree. Bhagani bhagini.
A similar question, bhagini. Could we have also said upasthishyamaha?
Upasthasyamaha.
Okay. I mean, under what conditions would we split it up as upasthitaha bhavishyamaha? Is that the preferred usage, Bhagini? Instead of...
That is like that vibhajya prayoga, right? We have studied okay. About vibhajya prayoga. This is something like a vibhajya. It can be said together or split.
Okay. Like you gave the example of Nagarasya Sabhayaha Adhyakshaha.
Correct.
Okay.
Like here, Nagaran Tatrana. When I see something, I'll tell you.
Okay, Bhagini. Thank you.
Like over here, Sa Parivaram. Parivarena Saha. We can say that, or Sa Parivaram.
Okay. So
when we ask questions, the teacher will say, Vivaksha Anusaram. Vivaksha Anusaram. Vivaksha means the one who wants to say. Is there Icha? If they want to slit, they slit. If they don't want to slit, they don't have to slit.
But this this word bhavishyami, bhavishyamaha, it is it's a generic word for happen, isn't it, Bhagini? So you know, for something to happen, reach to happen, receive to happen, I mean, you can conjugate it with any other verb, isn't it, Bhagini?
Bhavishyami is I will be there. Bhavishya like that. Bhavishyami is I will be there. Bhavishyati, it will be there. Or yeah, it's like that.
Okay. I'm just looking at this particular usage. Upasthitah bhavishyamaha. We are kind of combining two verbs there, aren't we, Bhagini?
Yeah. So we can just say, Vayam Bhavishyamaha. That is enough.
Right.
Upahara samye, Vayam
Bhavishyamaha.
Vayam Bhavishyamaha. So they're just adding it for flavor. Upasthitaha means we will be present there.
Present. Okay.
Like we will be seated at the table, like that.
Okay, it is reiterating the presence.
Yeah. Vayam tatra bhavishyamaha, we will be there. That's it. That is enough. Paryaptam. That's paryaptam.
Other way we can tell that too. Upasthitaha, right?
Upasthitaha is more clear. Like
more not, clear.
Yeah, like make breakfast for me. Don't say you didn't make enough, like that.
धन्यवादः भगिनि
अस्तु अग्रे सागरि भगिनि
पत्नी यदि लोकयानं समये आगच्छेत् तर्हि
सो अत्र शी इस् एक्स्प्लेनिङ्ग् या उपाहारसमये भवान् आगमिष्यति इति परन्तु यदि लोकयानं समये आगच्छेत् तर्हि एव लैक् दट् शी इस् टेलिङ्ग् ओ सो द ट्रेन् हेस् टु कम् सो गच्छेत् इति पदम् इस् लैक् सेयिङ्ग् प्रायः इट्स् लैक् ओन्ली इफ् इट् कम्स् आन् टैम् समये मीन्स् आन् टैम् लोकयानम् इस् ट्रैन् खलु ट्रैन् समये आगच्छेत् तर्हि ओन्ली देन् यु आर् गोन् टु बि हियर् Like that, she is qualified. Sharada, Bhagini?
Bhagini, Agachet is, what form is this?
So this is another form which shows that there is uncertainty. Like, Shvaha Vrishti Bhavet. I'm not sure, but Bhavet. So this shows uncertainty. We haven't come across it, but
can we say yadi lokayanam samaye agachyati chet?
So but it cannot combine. You cannot combine yadi and chet. Yadi lokayanam samaye agachyati tarihi aham griham samaye agachami.
Okay, so if you use yadi, you must only use tarhi. You should not put this chet and all in between.
No. Or you can say lokayana samaye agachati chet aham griham samaye aham api griham samaye agachami.
Astu bhagini. Dhanyavada.
Dhanyavada. Sharada bhagini.
Aam tadapi satyameva. अस्तु अहम् आगच्छामि तावत्
एतत् अपि पठतु
पत्नी शुभप्रयाणं शुभास्ते पन्थानः सन्तु
अस्तु सो पतिः आम् तदपि सत्यं तत् अपि सत्यं तदपि सत्यम् अस्तु अहम् आगच्छामि तावत् सो हि सेस् ऐ एम् कमिङ्ग् So this is our culture, Kalu. We never say, okay, I'm going. We always say, I'm coming. In Telugu, they say, Untanu. Untanu means I'll continue to be here, Untanu. But, you know, it's not really Untanu. It's like, aham gachami eva. So this is the...
Paituvare.
Or you can say, na vare.
Na vare.
yeah, so this is the equivalent of saying na vare. Na vare means pore. Beautiful, hello. Yeah.
True, true.
So atra shubha prayanam. So this is one way to wish somebody who's leaving. Shubha prayanam. Shubhaste pantanah santu. Shubha te pantanah santu. Your journey. May all your journey be good. Shubha. Shubha te pantanah santu. Like sarve bhavantu sukhinah, sarve santu. Niramayah. So that is that usage. Santu niramayah. Astu. So atra bhavishyat kala rupani santi. Gacchati. Astu ketaki bhagini patati va?
Am bhagini.
Gacchati
ekvachane gamishyati bahuvachane gamishyanti.
Gamishyanti. Aham api vadatu. Aham aham katam bhavati.
Aham gachyami.
Gamishyami kalo, gamishyami.
Oh, aham gamishyami. Aham gamishyanti. Gamishyana.
Aham gamishyami, vayam gamishya.
Gamishyamaha.
Maha. Gamishyamaha. Astu, Savita bhagini, patati.
Dhanyavada bhagini.
Dhanyavada.
You can say te gamishyanti.
Te gamishyanti. Saha gamishyati, te gamishyanti. Aham gamishyami, vayam gamishyamah. Astu. Patati. Saha iti vadatu bhagini. Saha. Savita bhagini.
Saha patishyati.
Te
patishyanti.
Correct? Uttama, uttama. Sa, aham?
Aham pathami.
Aham, bhavishyat.
Aham patishyati.
Patishyami.
Aham patishyami. Saha patishyati, te patishyanti.
So, atra, aham iti asti chet, aham ekavaram likami. Aami. Aamaha. Okay, patish, and then patishyami, patishyamah. Aham, vayam.
Aham patishyami, vayam patishyamah.
Patishyamah. Astu. Sandhya bhagini, sa iti upyogam karotu. Sa likati, bhavishyat kala.
Sa lekhishyati, tah lekhishyanti. Aham lekhishyami, vayam lekhishyamah.
Uttama, uttama. Uma Krishnan bhagini?
Aham bhagini.
Bhavan
stapayishyat. Bhavantaha, is it right? Stapayishyanti. Aham stapayishyami. Vayam stapayishyamah.
Uttama. Amba karishyati. Bhavati.
Bhavati karishyati.
Bhavatyaha.
Karishyanti.
Bhavatyaha. Aham.
Aham karishyami. Vayam karishyamah.
Uttamam. Karishyamah. Parameshwar Mahodaya. Saha.
Saha. Dasyati. Sa. Dasyandi.
Te.
Dasyandi.
Aham.
Feeling bolna hai
na.
Aham. Dasyami. Vayam dasyandah.
Dasyam. 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 So, गृहपाठरूपेण तेषां फलानि पुनः पठन्तु, अपि च अस्माकं लेवल् वन् इति अस्ति खलु, लेवल् वन् हेण्ड् औट्, लेवल् वन् हेण्ड् औट् अस्ति खलु, तत् दृष्ट्वा अपि रूपाणि पठन्तु. एवमस्ति खलु, पठिष्यति पठिष्यन्ति. सो अत्र लोट्लकारः नास्ति. उदाहरणार्थं वि केनाट् टेल् सम्बडि इन् द फ्यूचर् यु विल् डू दिस्, ओके. सो वि हाव् अ डिफ्रेण्ट् लकार फार् दट्, ओके. सो इट् इस् पठति पठिष्यति, क्रीडति क्रीडिष्यति, भविष्यति भवति आल्सो भविष्यति, अस्ति आल्सो भविष्यति एव. सो अत्र भूतवान् इति सम्यक् नास्ति, अभवत् अभवत् एव. अस्तु, लिखति लेखिष्यति, लिख्न लेखिष्यति, खादति खादिष्यति, मिलति मेलिष्यति, हसति हसिष्यति, निन्दति निन्दिष्यति, पतति पतिष्यति, नयति नेकिष्यति, ऐम् सारी, नेष्यति. सेम् लैक् मिलति मेलिष्यति, लिखति लेखिष्यति. सो अत्र नयति नेष्यति, आनयति आनेष्यति, ओके. सो अत्र एवं सर्वाणि रूपाणि पठन्तु. कानिचन रूपाणि बहु भिन्नानि सन्ति, अवधेयम्. सो डस् एव्रिवन् हाव् दिस् हेण्ड् औट्? डू वाण्ट् मी टु सेण्ड् इट्? अस्ति वा?
अस्मि वा?
अस्ति
अस्ति अस्ति भगिनि.
अस्तु, उत्तमं. तर्हि आवश्यकं चेत् चाट् चाट् मध्ये पृच्छन्तु, अहं प्रेषयामि. अस्तु, सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्ति. हरियो गुरुभ्यो नमः. हरियो.
धन्यवादः भगिनी.
धन्यवादः भगिनी. धन्यवादः
भगिनी.